एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वदति अस्मिन् एव वर्षे प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचनं सम्पादयितुं सर्वकारः प्रतिबद्धो वर्तते। संसद दिवसस्य अवसरे नयाँ मानेश्वर वर्तिनी संसद भवने ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा संसदीय शासन प्रणालीं सबलयितुं आवधिक निर्वाचनं महत्वपूर्णां भूमिकां निर्वहतीति हेतोः समय एव निर्वाचनं विधास्यते इति प्रतिबद्धताम् अभिव्यनक। प्रधानमन्त्री देउवा जनप्रतिनिधिभिः जनतायाः राष्ट्रस्य च सर्वोपरि हिताय कार्याणि विधातुं बलं प्रादात्। कार्यक्रमे पूर्व प्रधानमन्त्री झलनाथ खनालः अवदत् संसद जनतायाः राष्ट्रस्य च स्वरस्य मुखरीकरणस्थलमस्ति हेतोः देशस्य सामाजिकार्थिक सांस्कृतिक रूपान्तरणाय संसद सुरक्षिततया सम्मानजनक रूपेण च सुचारू चालितव्या। संविधान सभायाः अध्यक्ष सुभाष चन्द्र नेवाङ संसद अवरोधनस्य कारणस्य विषय अध्येतव्य विमृष्ट व्यश्चेति चर्चयन् अगदत् सर्वकारस्य कार्याणां विषये संसदि प्रश्नोद्भवनमनु तत्र अनुसन्धानं विधातव्यम्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः अकथयत् राष्ट्रे राजनीतिक स्थिरतायै सामाजिक न्यायाय आर्थिक विकासाय सुशासनाय भ्रष्टाचारमुक्तस्य समाजस्य निर्माणाय च सर्वै ध्यानं प्रदातव्यम्। विधि न्याय संसदीय विषय मन्त्री गोविन्द शर्मा कोइराला अब्रवीत् संसदम् आधिकाधिकम् सक्रियां विदाय अध्यादेशेन राष्ट्र संचालनस्य अवस्था निरोद्धव्या। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया कथयति आगामिनो कार्तिक मार्गशीर्ष मासयोः अभ्यन्तरे संघस्य प्रदेशानां च निर्वाचन सम्पादनस्य पूर्वकार्य आयोगः क्रियाशीलो वर्तते। गत वैशाख मासस्य त्रिंशे दिवसे सम्पन्नस्य स्थानीय स्तराणां निर्वाचनस्य केन्द्रीय स्तरस्य समीक्षा कार्यक्रमे ह्य प्रमुख निर्वाचन आयुक्तः थपलिया अतर्कयत् स्थानीय स्तराणां निर्वाचने बाध्यतावशात् सुरक्षायाः कारणेन मतगणनायां तन्त्रवेष्टनं कर्तव्यम् अभूत्। निर्वाचनायोगेन प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानाम् आगामि निर्वाचनाय वैद्युत मतदान यन्त्रस्य प्रयोगार्थम् आवश्यक प्रबन्धनाय नेपाल सर्वकारः अनुरुद्धो वर्तते। निर्वाचन सम्बद्ध विधौ विहितायाः व्यवस्थायाश्च आधारेण वैद्युत मतदान यन्त्रस्य प्रयोग व्यवस्थापनयोः सम्बन्धे अध्ययनाय आयोगेन संगठितायाः समितेः प्राप्तस्य प्रतिवेदनस्य आधारेण गृहमन्त्रालयस्य माध्यमेन सर्वकारः अनुरुद्ध स्थिति आयोगो ज्ञापयति। आयोगस्य सहप्रवक्ता सूर्यप्रसाद अरियालः गतदिने विज्ञप्तिं प्रकाश्य स्वदेशे निर्मितस्य वैद्युत मतदानयन्त्रस्य तत्कालं व्यवस्थापनस्य अवस्थायां सम्प्रति अविद्यमानायां सत्याम् आगामि श्रावण मासान्तं यावत् आयोगाय प्रदानत्वेन अन्येषु देशेषु निर्मितस्य वैद्युत मतदानयन्त्रस्य आवश्यक प्रबन्धनं कारयितुम् अनुरुद्धमिति अज्ञापयत्। सर्वोच्च न्यायालयेन शिलाखण्ड बालुकोत्खननानां विक्रय व्यवस्थापन सम्बद्धस्य मापदण्डस्य संशोधकं सर्वकारस्य निर्णयं न क्रियान्वेतुं प्रदत्ताय अन्तरिमादेशाय नैरन्तर्यं प्रदत्तमस्ति। न्यायाधीशयोः कुमार रेग्मिणः हरिप्रसाद फुयालस्य च संयुक्त न्यायपीठेन शिलाखण्ड बालुकोत्खननानां विक्रय व्यवस्थापन सम्बद्धस्य सप्तसप्तत्युत्तर द्विसहस्रतम मापदण्डस्य संशोधकं मन्त्रिपरिषदः निर्णयं न क्रियान्वेतुं प्रदत्ताय अन्तरिमादेशाय ह्य निरन्तरता प्रदत्तास्ति। आदेशे सर्वकारस्य एवंविधेन निर्णयेन शिक्षण स्वास्थ्य संस्थानां धार्मिक सांस्कृतिक पुरातात्विक महत्वस्य स्थान सुरक्षा निकायानाम् अन्तर्राष्ट्रिय सीमानाम् वनक्षेत्रस्य सघनवसतीनाम् उच्च विद्युत तन्त्र प्रभाव क्षेत्रस्य च सन्निकट क्षेत्रेऽपि शिलाखण्ड बालुकोत्खननानि विधातुं शक्यत्वेन मापदण्डोऽसौ संशोधितः प्रायः जलक्षेत्राणि अपि समाविष्टानीति च कारणेन अपूरणीय क्षतेः सम्भावना दृष्टेति उल्लिखितं वर्तते। वातावरण न्याय समाज नेपालस्य पक्षतः अधिवक्त्रा पद्मकुमार श्रेष्ठ प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयं विपक्षीकृत्य सर्वकारस्य एतस्य संशोधन निर्णयस्य विरुद्धे न्यायिक निवेदनं पञ्जीकारितम् आसीत्। सभामुखः अग्निप्रसाद सापकोटा कथयति नेपालः असमलग्नान्दोलनस्य सिद्धान्तं प्रति पूर्ण प्रतिबद्धो वर्तते। अजरबैजान देशस्य राजधान्यं बाकुस्थाने ह्य प्रारब्धं असमलग्नान्दोलन संसदीय झञ्झालस्य सम्मेलनं सम्बोधयन् सभामुखः सापकोटा अगदत् नेपालस्य संविधानेन असमलग्नता स्वस्य परराष्ट्रनीतेः अभिन्नाङ्गस्य रूपेण समाविष्टास्ति। सभामुखा सापकोटा अगदत् असमलग्नान्दोलनस्य मूल्यमान्यताः सिद्धान्ताञ्च सुदृढान् विधातुम् असमलग्नान्दोलन संसदीय सञ्जाल सम्मेलनम् महत्वपूर्णं सम्भूतम् अस्ति। एतेन च आन्दोलनस्य अभ्यन्तरे सहयोगस्य बहुभायामिक प्रकृत्यै सार्थकता च प्रदत्ता अस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशः अस्यैव आषाढस्य सप्तविंशे दिवसे व्यवस्था। ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये दिवा एकवादने उपवेक्षमाणे उपवेशे अस्य वर्षस्य स्थानीय स्तराणां निर्वाचनं समीक्ष्य विविधाः विषयाः विमृक्षन्ते इति दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिव कृष्णप्रसाद पौडेलः ज्ञापयति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति चलचित्र क्षेत्रस्य विकास विस्तारयो कृते सर्वकारः प्रतिबद्धो वर्तते। राष्ट्रिय चलचित्र विकास समितेः द्वाविंशस्य वार्षिकोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री कार्की अभाषत चलचित्र क्षेत्रे दृष्टानां समाह्वयानाम् अवसरे परिवर्तनाय चलचित्र विकास समितिं समयानुकूलम् अग्रे वर्धयितुं सर्वकारः तत्परोऽस्ति। मन्त्री कार्की सामाजिक जागरणोद्भावकाः कलाकाराः सर्जकाश्च राष्ट्रस्य गौरवमस्तीति चर्चयन् कलाकारैः दत्ताय योगदानाय विशिष्टरूप प्रदानार्थं सर्वैर्मिलित्वा अग्रे वर्धितव्यम् इत्यत्र बलम् अदात्। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं नेपालस्य कृते भारतस्य राजदूतः नवीन श्रीवास्तवः ह्यः स्वपदीय प्रमाणपत्रं प्रास्तोत्। शीतलनिवासस्थिते राष्ट्रपति भवने आयोजिते विशेष समारोहे नेपालस्य कृते भारतस्य राजदूतः श्रीवास्तवः पदीय प्रमाणपत्रं प्रास्तोदिति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण प्रकाशितायं विज्ञप्तौ लिखितं वर्तते। तदवसरे परराष्ट्रमन्त्री डाक्टर नारायण खड्का नेपाल सर्वकारस्य उच्चपदस्थाः अधिकारिणः उपस्थिताः आसन्। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं नवनियुक्ताः राजदूताः कतारदेशस्य कृते डाक्टर नरेश विक्रम ढकालः चीनदेशस्य कृते विष्णु पुकार श्रेष्ठः अस्ट्रेलियादेशस्य कृते कैलाश राज पोखरेलः इजरायल देशस्य कृते कान्ता रिजालश्च पदगोपनीयतयोः शपथम् अगृह्णन्। शीतलनिवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते समारोहे एभिः राजदूतैः राजदूतपदानां पदगोपनीयतयोः शपथः गृहीतः इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। प्रधानमन्त्रिणा शेरबहादुर देउवाभिधेन सह नेपालस्य कृते भारतस्य नवनियुक्तः राजदूतः नवीन श्रीवास्तवः ह्यः शिष्टाचार मेलनम् अकरोत्। बालवाटारवर्तिनी प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने नेपालस्य कृते भारतस्य राजदूतः श्रीवास्तवः सम्प्रत्येव सम्पन्नाभ्यां प्रधानमन्त्रिणः देउवाभिधस्य भारत भ्रमणेन प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेपालस्य भ्रमणेन च देशद्वयस्य सम्बन्धः अतिरिक्तः सुदृढीकृतोऽस्तीति अवोचत्। इति समाचाराः।